सर्वेषां संस्कृतकक्षायां पुनः एकवारं स्वागतम्. प्रथमतया अहम् एकं श्लोकं वदामि. भुक्त्वा तृणानि शुष्काणि पीत्वा तोयं जलाशयात् दुग्धं ददति लोकेभ्यः गावो विश्वस्य मातरः. इत्युक्ते अत्र शुष्काणि तृणानि भुक्त्वा जलाशयात् तोयं पीत्वा गावः लोकेभ्यः दुग्धं ददति. गावः विश्वस्य मातरः इत्युक्ते गावः इत्युक्ते गौः गौः. तत्र धेनुः किं करोति? धेनुः इत्युक्ते कौ. धेनुः शुष्काणि तृणानि खादित्वा केवलं जलाशयतः जलं पीत्वा लोकेभ्यः इत्युक्ते लोके जनानां कृते धेनवः दुग्धं यच्छन्ति. द क्याउस् विल् गिव् द मिल्क्. दुग्धं तु पौष्टिकाहारः. किन्तु धेनुः किं खादति? केवलं शुष्काणि तृणानि खादति, अपि च जलं पीत्वा अस्माकं कृते दुग्धं ददाति. इत्युक्ते केवलं तत्र तृणं खादित्वा क्षीरं ददाति. अतः एव गावः गावः इत्युक्ते धेनवः विश्वस्य मातरः. तथा वदामः, तथा एव सज्जनाः सज्जनाः लोके केवलं लोककल्याणार्थं कार्याणि कुर्वन्ति, उत्तमानि कार्याणि कृत्वा जीवनयापनं कुर्वन्ति. ईदृशानि सुभाषितानि संस्कृतभाषायां बहूनि सन्ति, किन्तु तेषाम् अवगमनार्थं भाषायाः अवगमनम् अस्माकं कृते किञ्चित् आवश्यकम्. अतः वयं सर्वे मिलित्वा अत्र संस्कृतभाषायाः अवगमनार्थं किञ्चित् प्रयत्नं कुर्मः. उत्तमम्. अनन्तरं किञ्चित् म्यूट् करोमि महोदय अधुना. अनन्तरम् अत्र गते सप्ताहे वयं स्म इत्यस्मिन् विषये किञ्चित् अधीतवन्तः. स्म इति पदं वाक्ये कुत्र आगच्छति, स्म इति योजयित्वा वाक्यरचना कथं करणीया इत्यस्मिन् विषये वयं किञ्चित् अधीतवन्तः. स्म इति पदं लट्लकाररूपं स्वीकृत्य अन्ते स्म इति योजनेन तत्र भूतकालार्थं सिद्ध्यति इति तु वयं जानीमः. इतोपि वयं किञ्चित् अभ्यासं कुर्मः चेत् अस्माकम् अवगमनं सम्यक् भविष्यति. तदर्थमेव अहम् अन्यत् करपत्रं प्रेषितवती. तत् करपत्रं किम् इत्युक्ते, तत्र गुरुकुलम् इति नाम्ना एकं करपत्रं प्रेषितवती. तत्र शीर्षिकः न दृश्यते तस्मिन् करपत्रे, यु आर् नाट् एबल् टु सी द हेडिङ्ग् देर्, किन्तु तत्र शीर्षिका अस्ति गुरुकुलम्. तत्र गुरुकुलं नाम्ना एकं लेख्यबन्धं प्रेषितवती. लेख्यबन्धम् इत्युक्ते एस्से, एस्से प्रेषितवती. तत्र तस्मिन् करपत्रे किमस्ति इति वयम् अधुना पठिष्यामः. अत्र राजीव्सिङ्ग् महोदय, भवान् अत्र भवतः पार्श्वे करपत्रम् अस्ति वा? तत्र करपत्रं एकं
गुरुकुलं
गुरुकुलम्
अद्य यथा विद्यालयः भवन्ति तथा प्राचीनकाले गुरुकुलानि भवन्ति स्म. गुरुः
एकवारं महोदय एकवारं पूर्णतया पठतु, तदनन्तरम् अस्मिन् तत्र किम् अस्ति इति एकमेकं वाक्यं स्वीकृत्य वयं किञ्चित् चिन्तनं कुर्मः. पठतु.
गुरुः छात्रेभ्यः वासव्यवस्थां कल्पयित्वा बोधयति स्म. केचन शास्त्राणि अध्येतुं गुरुकुलम् आगच्छन्ति स्म. पुनः केचन शस्त्रकौशलं प्राप्तुं, केचन वैद्यः भवितुं वेदान्तग्रन्थां पठितुं च तत्र आगच्छन्ति स्म. यः यत्
पठतु महोदय, न श्रूयते.
Oh, I'm sorry, I pressed mute by mistake. Punaha kechanaha shastra koshalam praptum. Kechanaha kechan vedyaha bhavitum vedanta granthana pathitum cha atatra agachanti sma. Yaha yat praptum icchati tat tadati sma gruhu. Gurukule chhatraha स्नातुं नदी गच्छन्ति स्म. धेनु वृषभादीन चारयन्तुं वनं गच्छन्ति स्म. कन्दमूलफलानि आनेतुं समिदः सङ्ग्रहीतुं च अरण्यं गच्छन्ति स्म. तण्डुलादिकं प्राप्तुं ग्रामान् गच्छन्ति स्म. गुरुकुलं चालयितुं नृपः सहायं कुर्वन्ति स्म. धनिकः अपि सहायं कर्तुम् उत्साहं दर्शयन्ति स्म. किन्तु गुरुः स्वावलम्बजीवनं यापयितुम् इच्छति स्म. अतः तादृशं सहायं प्राप्तुं न इच्छति स्म.
अस्तु, अत्र किञ्चित् अवगतवान् वा अत्र किं दत्तमस्ति? किञ्चित् अवगतं वा? किञ्चित्
किञ्चित्
किञ्चित् अधुना एकमेकं वाक्यं स्वीकृत्य किञ्चित् तस्मिन् विषये चिन्तनं कुर्मः. अत्र अस्मिन् करपत्रे शीर्षिका न दृश्यते. शीर्षिका इत्युक्ते हेडिङ्ग्. हेडिङ्ग् इस् नाट् सीन् हियर्. अस्तु, परन्तु शीर्षिका अस्ति गुरुकुलम् इति शीर्षिका अस्ति, किन्तु अत्र न दृश्यते. वि आर् नाट् एबल् टु सी इट्. किन्तु अत्र गुरुकुलानि, अत्र प्रथमं वाक्यं पश्यतु. अद्य यथा विद्यालयाः भवन्ति तथा प्राचीनकाले गुरुकुलानि भवन्ति स्म. वयम् अत्र भवान् किम् अवगतवान् महोदय, वदतु.
अद्य यथा विद्यालयः भवन्ति, nowadays we have school, but olden days we had gurukuls, right?
उत्तमं, तावदेव. इत्युक्ते वयं पूर्वमेव अभ्यासपुस्तके पठितवन्तः यथा तथा. यथा अहं कार्यं करोमि तथा मम पुत्री अपि कार्यं करोति. यथा तथा प्रयोगः वयं पठितवन्तः. अत्र तदेव अद्य, अद्य इत्युक्ते इदानीन्तनकाले, नवडेस्. अद्य यथा विद्यालयाः भवन्ति. अत्र भवन्ति इति बहुवचने किमर्थं महोदय?
Many schools, विद्यालय, बहुवचनं.
बहुवचनं विद्यालयाः अस्ति इति कृत्वा अद्यतनकाले, इदानीन्तनकाले यथा बहवः विद्यालयाः भवन्ति तथा एव किम् अभवत्? तथा एव प्राचीनकाले गुरुकुलानि भवन्ति स्म. केवलं गुरुकुलानि भवन्ति इति वदामश्चेत् तत्र किं भवति? वर्तमानकालरूपं सम्भवति. परन्तु अत्र स्म इति योजनेन भवन्ति स्म, गुरुकुलानि भवन्ति स्म. इत्युक्ते देर् यूस् टु बि गुरुकुलास् इन् ओल्डेन् डेस्. अत्र स्मा इति योजनेन तत्र भूतकालार्थं सिद्ध्यति. किमर्थं? प्राचीनकाले, इदानीन्तनकाले यथा विद्यालयाः सन्ति तथा एव प्राचीनकाले गुरुकुलानि भवन्ति स्म. अत्र प्राचीनकाले, अत्र भवन्ति इति पदं वर्तमानकालरूपं. वयं जानीमः संस्कृतभाषायां धातवः सन्ति भूधातुः. भूधातोः वर्तमान कालरूपम् अपि च प्रथमपुरुष बहुवचनरूपं भवन्ति. किन्तु लट्लकाररूपं, लट् इत्युक्ते वर्तमानकालरूपं, वर्तमानकालं स्वीकृत्य स्म इति योजनेन भविष्य तत्र भूतकालार्थं सिद्ध्यति. अत्र प्राचीनकाले इत्युक्ते तत्र विभक्तिः का, किञ्चित् ऊहां करोतु.
प्राचीनकाले चतुर्थी विभक्ति.
अत्र जान् महोदय वदतु, अत्र नो चेत् उमाशङ्करमहोदय कः वदति. अत्र सप्तमी विभक्तिः महोदय. अत्र प्राचीनकाले इत्युक्ते साधारणतया वयं
सेवेन्थ् केस्.
सेवेन्थ् केस्
प्राचीनकाले केस् नम्बर् सेवेन् सप्तमी.
अस्तु, उत्तमम् उत्तमं महोदय, उत्तमम्. कोऽपि भवान् जानाति चेत् उत्तरं ददातु. इत्युक्ते वयं वयं सर्वे मिलित्वा अत्र चिन्तनं कुर्मः. अतः यदि भवान् उत्तरं जानाति चेत् वदतु. अधुना तादृश अत्र गुरुकुलानि भवन्ति स्म प्राचीनकाले. अग्रिमं वाक्यं, गुरुः छात्रेभ्यः वासव्यवस्थां कल्पयित्वा बोधयति स्म. अत्र गुरुः छात्रेभ्यः, गुरुः किं करोति स्म? राजीवसिंह महोदय वदतु, किं करोति स्म?
पठितां
किं करोति स्म? वाट् हि यूस् टु डु गुरु, गुरुः वदतु.
शिक्षां ददाति.
ददाति, उत्तमं, शिक्षणं ददाति. अपि च किन्तु किन्तु अस्मिन् वाक्ये, अस्मिन् वाक्ये किं दत्तमस्ति? गुरुः छात्रेभ्यः, छात्रेभ्यः. अत्र जान् महोदय केस् वदतु.
That is plural of chhatras. Chhatrebhya by case 3, I think it is.
Atra, no, fourth case.
Fourth case. For the children in plural. Children or students.
Uttama. Ichukte atra. छात्रेभ्यः इत्युक्ते छात्राणां कृते. फर् द चिल्ड्रन्, फर् द स्टूडेण्ट्स्. अत्र पदमस्ति, प्रथमाविभक्त्यन्तं पदमस्ति. छात्रः एकवचनं, बहुवचनं वदतु.
छात्रा लाङ्ग् लाङ्ग् आर् इन् प्रथमा, बट् इन् फोर्थ् केस् इस् छात्रेभ्यः.
सुन्दरम्, उत्तमम् उत्तमं, सम्यक् एव. इत्युक्ते छात्रः एकवचनं, छात्राः बहुवचनं. किन्तु अत्र किं किं कल्पयति? गुरुः कल्पयति. गुरुः किं कल्पयति? वासव्यवस्थां कल्पयति. इत्युक्ते छात्राः तत्र आगच्छन्ति, गुरुकुलं गच्छन्ति. तत्र छात्राणां कृते वासव्यवस्था इत्युक्ते निवासार्थं वसति. तत्र छात्राः गुरुकुलेषु वसन्ति. तदर्थं छात्राणां कृते वासव्यवस्थां कल्पयति. कः कल्पयति
वासव्यवस्थां?
वासव्यवस्थां कल्पयति, परन्तु कः कल्पयति? गुरुः कल्पयति. केभ्यः कृते? केभ्यः? छात्रेभ्यः. किं कल्पयति? वासव्यवस्थां कल्पयति. अत्र वासव्यवस्थाम् इति पदं कर्मपदम्. अपि च अत्र पश्यन्तु, कल्पयित्वा इति पदमस्ति. अद्यतन अस्माकं नूतनविषयः अस्ति क्त्वा प्रत्ययान्तरूपम्. अत्र कल्पयित्वा इति पदं दत्तमस्ति. इत्युक्ते अत्र अस्मिन् वाक्ये गुरुः कार्यद्वयं करोति. हिल् डू टु जाब्स्. एकमस्ति छात्रेभ्यः कृते वासव्यवस्थां कल्पयति, अपि च छात्रान् बोधयति. दट् मीन्स् हिल् डु टु जाब्स्. छात्रेभ्यः वासव्यवस्थां कल्पयति, अपि च बोधयति. तदर्थम् अत्र कल्पयित्वा. अत्र अस्मिन् वाक्ये कर्ता एकः एव, गुरुः एव कर्ता. कर्ता इत्युक्ते यः कार्यं करोति सः कर्ता. गुरुः एव कर्ता. गुरुः एव कार्यद्वयं करोति, व्यवस्थां कल्पयति, अपि च बोधयति. इत्युक्ते हि डू टु टास्क्स् कल्पयित्वा बोधयति स्म. तृतीयं वाक्यं, केचन अत्र गुरुकुलानि इति पदमस्ति, राजभूषण महोदय वदतु एकवचनं वदतु.
गुरुकुलं एकवचनं फोर् फोर् विच् वर्ड्
गुरुकुलानि
गुरुकुला
is school for singular for school neuter gender
neuter gender uttamam mahodaya yavat shakyam sanskrita bhashayam vaktum prayatnam karotu jan mahodaya uttamritya bhavan avagatavan eva tatra neuter gender iti neuter gender ityasmin sthane napumsakalingam
nakum sapalingah
उत्तमम् उत्तमम्. अत्र तादृशरीत्या गुरुकुलानि भवन्ति स्म. अपि च अत्र केचन शास्त्राणि अध्येतुं गुरुकुलम् आगच्छन्ति स्म. अत्र केचन इति दत्तमस्ति. केचन इत्युक्ते यद्यपि अत्र छात्राः इति पदं न दत्तमस्ति, केचन छात्राः, तत्र बहवः छात्राः आगच्छन्ति स्म, किन्तु केचन छात्राः किमर्थं तत्र आगच्छन्ति, केचन छात्राः
शास्त्राणि अध्येतुम् आगच्छन्ति
अध्येतुं गुरुकुलम् आगच्छन्ति स्म. अत्र केचन इति दत्तमस्ति. केचन इति वयं जानीमः एव, तत्र रूपं किं कोऽपि वदति वा?
केचन इस् अवयव फर् सम्.
फर् सम् उत्तमं, किन्तु बहुवचनरूपं.
ओके, बहुवचन बहुवचन ओके केचन
किमर्थं बहुवचनरूपम्? एकवचनरूपं किं भवति? कश्चन.
या बिकास् या कश्चन
एकवचनं पुंलिङ्गे कश्चन, द्विवचनरूपं कौचन, किन्तु बहुवचनरूपं केचन. सम् स्टूडेण्ट्स् अत्र सम् स्टूडेण्ट्स् इति वदामश्चेत् केचन छात्राः.
जानामि बिकास् आफ़् प्लूरल् अण्ड् खा इस् सिङ्गल् ओके अण्डर्स्टुड्
उत्तमम् उत्तमम्. इत्युक्ते तत्र किं कुर्मः, तत्र पुंलिङ्गे किं वदामः? अत्र राजसिंह महोदय यदि भवान् जानाति चेत् वदतु, नो चेत् अहं वदामि. अत्र कः, कौ, के. अत्र कः कौ के इत्युक्ते तत्र प्रारम्भिकस्तरीय करपत्राणि सन्ति. यदि तानि करपत्राणि पठामश्चेत् तत्र एतानि सर्वाणि रूपाणि तत्र सन्ति. ऐ हेव् सेण्ट् सम् करपत्रम् इन् दट् यु केन् फैण्ड् आल् दीस् फार्म्स्. कः कौ के वित् कः, इफ् यु आड् चन इट् विल् बिकम् कश्चन. वित् के कः कौ के इति बहुवचनरूपं, वित् के इफ् यु आड् चन देन् यु विल् गेट् केचन. अत्र केचन छात्राः शास्त्राणि अध्येतुं गुरुकुलम् आगच्छन्ति स्म. अत्र शास्त्राणि इति पदमस्ति, एकवचनं वदतु महोदय.
शास्त्राणि नपुंसकलिङ्गः एण्ड् प्लूरल्.
एकवचनं
छात्राणि इस् प्लूरल् युनो बहुवचन.
एकवचनं किं?
छात्रं
काचन छात्रा अध्येतुं गुरुकुलम् आगच्छति.
अत्र महोदय, उमाशङ्कर् महोदय, भवान् वदतु शास्त्राणि इति पदस्य एकवचनरूपं.
शास्त्रं अध्येतुं गुरुकुलम् आगच्छति स्म.
अत्र पश्यन्तु, केचन इति उक्तम, केचन इति बहुवचनरूपमस्ति इति कृत्वा तत्र आगच्छन्ति, केचन आगच्छन्ति, केचन केचन ते के, केचन छात्राः, केचन छात्राः गुरुकुलम् आगच्छन्ति स्म. किमर्थं? शास्त्राणि अध्येतुं, टु लर्न् द शास्त्रास्. अपि च अग्रिमं वाक्यं, पुनः केचन शस्त्रकौशलं प्राप्तुम्. अत्र पूर्णतया वाक्यं न दत्तमस्ति, केवलं किञ्चिदेव दत्तमस्ति, किन्तु वयम् ऊहां कर्तुं शक्नुमः. अत्र पुनः केचन छात्राः शस्त्रकौशलं प्राप्तुम् आगच्छन्ति स्म इति तत्र लेखनीयम्. ईवन् दु द सेण्टेन्स् इस् नाट् कम्प्लीट् बट् स्टिल् इट् मेक्स् सेन्स्. केचन छात्राः शास्त्राणि अध्येतुम् आगच्छन्ति, किन्तु अन्ये छात्राः शस्त्रकौशलं प्राप्तुं तत्र आगच्छन्ति. अत्र शस्त्रं, शास्त्रं भिन्नं, शस्त्रं भिन्नं पदं. शास्त्रम् इत्युक्ते शास्त्राणि, शास्त्राणि विज्ञानशास्त्रं, गणितशास्त्रम्, एतानि शास्त्राणि. किन्तु शस्त्रकौशलं, शस्त्रकौशलं मीन्स् इत्युक्ते किं, कः वदतु महोदय?
Arms, arms knowledge, knowledge of arms.
Knowledge of arms. उत्तमं, तदेव. अत्र पश्यन्तु, कौशलम् इति पदमस्ति. संस्कृतभाषायां बहूनि पदानि कथं निष्पन्नानि इति वयं चिन्तयामश्चेत् बहु सुन्दररीत्या भाषा अस्ति. अत्र कुशलस्य भावः कौशलम् इति वदामः. कुशलः इति पदमस्ति, तस्मात् कौशलम् इति पदम् आगतम्. केचन छात्राः शस्त्रकौशलं प्राप्तुं गुरुकुलम् आगच्छन्ति स्म. अपि च केचन अन्ये छात्राः वैद्याः भवितुं, वेदान्तग्रन्थान् पठितुं च तत्र आगच्छन्ति स्म. अत्र राजर्षिमहोदय वदतु, अस्य अर्थः कः?
केचन वैद्याः भवितुं, वेदान्तग्रन्थां पठितुं, दट् सम् अदर् केम् टु स्टडि वेदास्.
सम् अदर् स्टूडेण्ट्स् दे केम् टु बिकम् डाक्टर्स्. केचन छात्राः वैद्याः भवितुं, वैद्याः, केचन छात्राः वैद्याः भवितुं तत्र आगच्छन्ति स्म. वैद्याः इत्युक्ते डाक्टर्स्. अपि च अन्ये केचन छात्राः वेदान्तग्रन्थान् पठितुं तत्र आगच्छन्ति स्म. इत्युक्ते तत्र बहवः छात्राः आगच्छन्ति स्म, तेषु के के किं पठन्ति इति अत्र दत्तमस्ति. वेदान्तग्रन्थान्, तत्र रूपं किम्?
प्लूरल्. Vedanta Grantham is second case. Grantham, Patitanti, these are all plural. The verb is plural. Agachanti sma.
Uttama. Kimartham plural?
Because it is Kechana Vaidyaha and Kechana. Kechana is plural, therefore, and Vaidyaha is also plural. And so they're all plural, the subjects are all plural.
Uttama, uttama. Ichukte kartrupadam, kartrupadam bahuvachane asti iti karanataha, kechana chatraha tatra agachanti. Kimardham ichukte kechana vaidyaha bhavitum ichanti, केचन वेदान्तग्रन्थान् पठितुम् इच्छन्ति. अत्र राजीवसिंह महोदय, अत्र वेदान्तग्रन्थान् इति पदमस्ति, प्रथमाविभक्ति एकवचनरूपं वदतु.
वेदान्तग्रन्थं
वदतु महोदय.
एण्ड् वैद्या, वैद्या विदौट् द लाङ्ग् दीर्घ.
एकवारं राजीवसिंह महोदय भवान् वदतु, भवान् जानाति महोदय किञ्चित् वदतु महोदय, राजीवसिंह महोदय.
Okay, Vaidya is singular and Grantham is singular.
Vaidyah iti
singular
nam. Atra pashyantu. Granthaha.
Granthaha, okay.
Granthaha.
Atra
plural padam.
Vadat mahodaya?
Pulling ekvachanam. Grantham.
Kadam vaktavyam ichukte. अत्र द्वितीया विभक्ति बहुवचनं पुंलिङ्गपदं दत्तमस्ति इत्युक्ते द्वितीया विभक्ति इति वदामश्चेत् कर्मपदं तस्मिन् वाक्ये कर्मपदम् इट् इस् द आब्जेक्ट् आफ् द सेण्टेन्स् किन्तु प्रथमाविभक्ति एकवचनरूपम् अस्ति वेदान्तग्रन्थः
ग्रन्थः
तथा इत्युक्ते अत्र किं वक्तव्यं चत्वारि विषयाः सन्ति अत्र अकारान्तपदमस्ति ग्रन्थः तत्र ग्रन्थः इति पदस्य मूलरूपं ग्रन्थ यदा वयं ग्रन्थ इति वदामश्चेत् तत्र अकारः श्रूयते अतः तत्र अकारान्तपदं पुंलिङ्गपदं प्रथमाविभक्ति एकवचनं वेदान्तग्रन्थः यदि वेदान्तग्रन्थान् इति अस्ति चेत् तत्र किं वक्तव्यम् अकारान्तपदं पुंलिङ्गपदं द्वितीयविभक्ति बहुवचनं तथा वक्तव्यम् उत्तमं ते केचन छात्रान् तत्र आगच्छन्ति स्म अपि च यः यत् प्राप्तुमिच्छति तत् ददाति स्म गुरुः इत्युक्ते अत्र बहवः छात्राः सन्ति केचन वेदान्तग्रन्थान् पठितुमिच्छन्ति केचन शस्त्रकौशलं प्राप्तुम् आगच्छन्ति तदर्थं गुरुः किं करोति यः यदिच्छति तद्ददाति यः छात्रः यत् प्राप्तुम् इच्छति वाट् एवर् द स्टूडेण्ट् वाण्ट् टु लर्न् वदतु महोदय
वाट् एवर् द स्टूडेण्ट्स् वाण्टेड् टु लर्न् गुरु यूज़्ड् टु टीच् देम्
उत्तमं
तत् ददाति गिव्
देम् अत्र किमर्थं गिव् देम् तत्र किमर्थं तथा इत्युक्ते अत्र ददाति स्म
गेव् देम्
गिविदम् तत्र गेविदम् उत्तमम् इत्युक्ते अत्र ददाति स्म इति दत्तमस्ति इत्युक्ते भूतकालार्थे गेव् इति भवति ददाति इति वदामश्चेत् लट् लकारः उत्तमं महोदय ददाति इति पदं वर्तमानकालरूपं किन्तु अत्र ददाति स्म इति दत्तमस्ति कः राजेशसिंह महोदय भवान् वदतु कः ददाति स्म
गुरुः ददाति स्म
गुरुः ददाति स्म किं ददाति स्म इत्युक्ते यः यदिच्छति तद् ददाति स्म तदा अत्र पश्यन्तु यत् तत् इति पदं प्रयोगः दत्तमस्ति अस्माकम् अभ्यासपुस्तके अग्रे गत्वा वयं तस्मिन् विषये पठिष्यामः यत् तत् प्रयोगः यदा यस्मिन् वाक्ये यत् आगच्छति तस्मिन्नेव वाक्ये तत् अपि साधारणतया आगच्छति अत्र यत् नूतन किं वदामः तत्र यथा तथा इव जस्ट् लैक् यथा तथा यत् तत् प्रयोगः अपि अस्ति गुरुः यः छात्रः यत् प्राप्तुमिच्छति तद् ददाति अनन्तरं गुरुकुले छात्राः स्नातुं नदीं गच्छन्ति स्म इत्युक्ते किं महोदय
गुरुकुले छात्राः सप्तमी विभक्ति इन् गुरुकुल् छात्र यूस् टु गो रिवर् टु टेक् बात्
उत्तमं किन्तु अत्र पश्यतु ददाति इति पदमस्ति ददाति इति पदम् अग्रे गत्वा वयं तस्मिन् विषये चिन्तयामः किन्तु अत्र स्नातुम् इति पदमस्ति वयं साधारणतया शृणुमः एकं पदं राजर्षिः महोदय भवान् जानाति वा
स्नातुं
उत्तमं स्नातुम् इति पदं तुमन्नन्तं रूपं तुमन्नन्तविषये अपि वयम् अभ्यासपुस्तके अग्रे गत्वा पठिष्यामः अस्मिन् करपत्रे स्म इति पदमस्ति, अपि च तुमन्नन्तरूपाणि अपि सन्ति. अत्र पश्यन्तु, भवितुं, प्राप्तुं, पठितुम्, अध्येतुं, स्नातुम् इत्युक्ते अत्र तुमन्नन्तरूपाणि अपि सन्ति, किन्तु अद्यतन अस्माकं विषयः स्म. तदर्थं केवलं स्म इत्यस्मिन् विषये एव अधुना वयं चिन्तनं कुर्मः. अत्र स्नातुम् इति तुमन्नन्तं पदं, किन्तु कोऽपि ऊहां कर्तुं शक्नोति वा लट्लकाररूपं किम्?
स्नाति
उत्तमं. स्नाति इति तत्र लट्लकाररूपं. स्नानम् इति पदं ल्युट् प्रत्ययान्तरूपं. संस्कृतभाषायां बहवः प्रत्ययाः सन्ति, तेषु अन्यतमः वन् अमाङ्ग् देम्, तेषु अन्यतमः ल्युड् अन्तरूपं, ल्युट् प्रत्ययान्तरूपं. स्नानं, पठनं, गमनं, तथा एव अध्ययनं, भवनं, पठनं, एतादृशानि पदानि ल्युट् प्रत्ययान्तरूपाणि. अत्र किमस्ति, गुरुकुले छात्राः स्नातुं कुत्र गच्छन्ति स्म?
नदीम्.
अस्मिन् वाक्ये कर्मपदं किम्?
That is second case. Second case स्त्रीलिङ्ग.
उत्तमं.
Second case is singular, also singular.
उत्तमम्. इत्युक्ते अस्मिन् वाक्ये कर्मपदं किं, मम प्रश्नः.
कर्मपदम् इस्
स्नाति,
गच्छन्ति.
गच्छन्ति इति पदं क्रियापदम्.
क्रियापदं. कर्मपदम् इस् छात्रा.
अत्र किञ्चित् भ्रमः अस्ति. यु हाव् सम् कन्फ्यूजन् महोदय. अत्र पश्यन्तु, अत्र पश्यन्तु, गुरुकुले यथा राजीवसिंह महोदयः उक्तवान् गुरुकुले इति सप्तमी रूपं, यथा महोदयः उक्तवान् सप्तमी रूपं, किन्तु अस्मिन् वाक्ये कर्तृपदं वदतु. कर्तृपदं किं? छात्राः.
छात्राः, that's what I said, but anyhow it doesn't matter. छात्राः, the plural, students, yeah.
अत्र पश्यन्तु,
एकवारं
एकवारं शृणोतु महोदय. अत्र छात्राः इति पदं कर्तृपदम् इत्युक्ते कर्ता, सब्जेक्ट् आफ् द सेण्टेन्स्. किन्तु अहं किं पृष्टवती, कर्मपदं किम्?
कर्मपदम् इस् नदीम्.
नदीम् इति पदं कर्मपदम्. उत्तमम्. यथा भवान् उक्तवान् अत्र नदी इति पदम् ईकारान्तपदं. राजीवसिंह महोदय वदतु नदी शब्दस्य विषये.
नदी, नदी, नदे, नद्या, नदी, नद्यो, नद्य.
सुन्दरं. प्रथमान्तानि, प्रथमाविभक्तरूपाणि नदी, नद्यौ, नद्यः. किन्तु नदी, नदी केवलं नदी, नदीम् इति शब्दस्य विषये तत्र
एकवचनं
वदतु.
एकारान् स्त्रीलिङ्ग् एकवचनं.
उत्तमम्. ईकारान्त स्त्रीलिङ्ग एकवचनं द्वितीया विभक्ति. सेकेण्ड् केस् द्वितीया विभक्ति. तत्र गुरुकुले किं भवति स्म? साधारणतया छात्राः प्रातःकाले उत्थाय छात्राः स्नातुं नदीं गच्छन्ति स्म. अनन्तरं ते किं कुर्वन्ति स्म? धेनु वृषभादीन् चारयितुं वनं गच्छन्ति स्म. अत्र धेनु महोदय वदतु, अत्र कः अस्ति? उमाशङ्करमहोदय वदतु, अस्य अर्थः कः? धेनुः, धेनुवृषभादीन्.
Cows and goats.
अत्र इतोपि सम्यक् वक्तव्यं, सम्यक् रीत्या वक्तव्यं. जान् महोदय वदतु.
धेनुः दिस् काव्स् अण्ड् गोट्स् प्लूरल् इट्स् अगेन् केस् टु.
हा उत्तमम्. इत्युक्ते अत्र पश्यन्तु, अत्र पदमस्ति. किं पदमस्ति? धेनु वृषभादीन् इति पदमस्ति. तत्र कति पदानि सन्ति? त्रीणि पदानि सन्ति. त्रीणि पदानि कानि? धेनु वृषभ आदीन्. इत्युक्ते तत्र समस्तपदं, काम्पौण्ड् वर्ड् इति वदामः, समस्तपदम् इति वदामः. तत्र त्रीणि भिन्नपदानि सन्ति तस्मिन् पदे. धेनुः, धेनुः इति पदम् उकारान्तपदम्. धेनुः इत्युक्ते क्याव्. तत्र धेनुः इत्यस्य कृते अन्यत् पदमस्ति, गोशब्दः. गोशब्दः कथं भवति? गौः, गावौ, गावः, तादृशरीत्या भवन्ति रूपाणि. धेनुः इति उकारान्त स्त्रीलिङ्गपदम्. अपि च वृषभः, वृषभः इत्युक्ते कः वदति? सुन्दरं, उत्तमम्, उत्तमं. वृषभः इत्युक्ते आक्स्. धेनु वृषभ आदीन्, यथा जान् महोदयः उक्तवान्, आदीन्, आदिः इति पदस्य द्वितीयविभक्ति रूपमस्ति. किन्तु अत्र समस्तपदमस्ति, धेनु वृषभादीन् इति एकमेव पदं कृत्वा. यद्यपि तत्र त्रीणि भिन्नपदानि सन्ति, त्रीणि पदानि एकत्र एव संयोजनं कृत्वा समस्तपदं लिखितमस्ति. धेनु वृषभादीन् चारयितुम् अत्र पश्यन्तु. चरति वयं जानीमः, सः कुत्र चरति, कुत्र गच्छति इति वदामः. किन्तु अत्र किं पदमस्ति? चारयति. वयं पूर्वमेव चर्चितवन्तः, पठति, पाठयति.
चारयितुं फोर् ग्रेज़िङ्ग्, फोर् द पर्पस् आफ़् ग्रेज़िङ्ग्, तुमुन्.
तुमुन् उत्तमं, तुमुन् रूपं चारयितुम् उत्तमं. किन्तु चारयितुम् इति तुमन्नन्तं रूपं, किन्तु लट्लकाररूपं वदतु.
चारयति.
सुन्दरं, चारयति. तत्र वयं जानीमः चरति इति पदम् अस्ति, चारयति अस्ति. तयोर्मध्ये भेदः कः?
Charity means someone is taking them to graze.
उत्तमम्, उत्तमं, तदेव. इत्युक्ते पश्यन्तु, वयं जानीमः एव, अहं संस्कृतं पठामि. इत्युक्ते अहं स्वयं पठामि, किन्तु अहम् अन्यं पाठयामि संस्कृतम्. ऐ एम् टीचिङ्ग् अदर्स्. इत्युक्ते अत्र पाठयति, पठति, पाठयति. तथा एव अत्रापि चरति, चारयति. इत्युक्ते धेनुः वृषभादीन् ते स्वयं न गच्छन्ति. छात्राः, छात्राः धेनुः वृषभादीन् चारयन्ति. इत्युक्ते द स्टूडेण्ट्स् आर् डूयिङ्ग् दट्. द कौस् दे केन् डू बै देम्सेल्स्. इत्युक्ते अत्र संस्कृतभाषायां निजन्तरूपाणि, निजन्तरूपाणि सन्ति. निजन्तरूपम् इत्युक्ते पाठयति, दापयति, चारयति, तादृशानि रूपाणि सन्ति. तत्र छात्राः प्रातःकाले स्नातुं नदीं गच्छन्ति स्म, अपि च धेनुवृषभादीन् चारयितुं कुत्र गच्छन्ति स्म? वनं गच्छन्ति स्म. अत्र वनम् इति पदं कर्मपदम्. कर्मपदम् इत्युक्ते तत्र वयं जानीमः, कुत्र गच्छन्ति इति प्रश्नं पृच्छामश्चेत् तत्र उत्तरं मिलति चेत् तस्मिन् वाक्ये तत् पदं कर्मपदं भवति. साधारणतया सः कुत्र गच्छति, कुत्र गच्छति इत्युक्ते सः पाठशालां गच्छति, सः वनं गच्छति, सः देवालयं गच्छति. तत्र कुत्र इति वदामश्चेत् तस्मिन् वाक्ये तत् पदं कर्मपदं भवति, आब्जेक्ट् आफ् द सेण्टेन्स् भवति. धेनुवृषभादीन् चारयितुं छात्राः, तत्र छात्राः इति पदं न दत्तमस्ति, किन्तु छात्राः इति पदं तत्र अध्यारोपणं कुर्मः, इत्युक्ते इट्स् इम्प्लाय्ड्. छात्राः वनं गच्छन्ति स्म. अपि च कन्दमूलफलानि आनेतुं समिधः सङ्ग्रहीतुं च अरण्यं गच्छन्ति स्म. अत्र कन्दमूलफलानि वदतु महोदय, इत्युक्ते किम्?
फ्लावर्स् अण्ड् फ्रूट्स्,
some it is some kind of fruit or some fruit of some type, kanda,
flowers and
atrapi treeni padani santi kanda moola phalani phalani vayamja
fruits of some root. Moolam is fruit, is root. Kanda I don't know what that is, but phalani is fruit. Fruits plural, plural neutergender. Okay,
उत्तमम्. इत्युक्ते अत्र फलं फलानि वयं जानीमः, किन्तु अत्र मूलं, मूलम् इत्युक्ते रूट्, अण्डर्ग्रौण्ड् रूट्स्.
वाट् इस् कन्द? कन्द मीन्स् वाट् फोर्
कन्द इत्युक्ते बल्ब् लैक् ट्यूबरस् पार्ट्
कन्द, कन्दमूलं. सो इट् इस् ट्यूबुलर् रूट् फ्रूट्. Is it an fruit or is all one compound word or fruit of the, I'm not sure whether fruit is separate from kandamoolam.
Ichukte atra api samasta padam asti kandamoola phalani iti ekameva padam krutva atra samasta padam asti kintu tata samasta pade trini bhinna padani santi trini bhinnani padani santi kanda moola phalam. इत्युक्ते कन्द इत्युक्ते ट्यूबरस् पार्ट् आफ् ए प्लाण्ट्, मूल इत्युक्ते रूट् आफ् ए प्लाण्ट्, अपि च फलम् इत्युक्ते फलं वयं जानीमः.
बट् दिस् इस् आल् वन् वर्ड्, वन् कम्पौण्ड् वर्ड्,
वन् कम्पौण्ड् वर्ड्. उत्तमं. समस्तपदं, समस्तं पदम् इति वदामः. काम्पौण्ड् वर्ड् इत्युक्ते समस्तं पदम्. अपि च सुन्दरं समस्तपदम्. अपि च छात्राः कन्दमूलफलानि आनेतुम्, अत्रापि तुमनन्तं रूपम् अस्ति, किन्तु लट्लकाररूपं किं भवति, ऊहां कुर्वन्तु.
आनयति,
आनयति, आनयति इति पदस्य तुमनन्तं रूपम् आनेतुम्. किन्तु अस्मिन् वाक्ये अत्र कन्दमूलफलानि इति पदं कर्मपदम्. इत्युक्ते अत्र एकः नियमः अस्ति, यत्र कुत्रापि तुमुन्नन्तं पदमस्ति चेत्, अपि च क्वान्तरूपम् अथवा ल्यबन्तरूपम् अस्ति चेत्, तत्र तुमुन्नन्तं रूपं तस्य नाम अस्ति संस्कृतभाषायां कृदन्तपदम्. तुमनन्तपदस्य अन्यनाम अस्ति कृदन्तपदं. क्त्वान्तं, क्त्वा प्रत्ययान्तरूपमपि कृदन्तपदम्. इत्युक्ते यत्र कुत्रापि तुमनन्तरूपं वा क्त्वान्तरूपं वा ल्यबन्तरूपम् अस्ति चेत् तत्र कर्मपदं सम्भवति, यदि सः धातुः सकर्मकधातुः अस्ति चेत्. इफ् द वर्ब् इस् कथं वदामः आङ्ग्लभाषायां, सकर्मक इत्युक्ते तत्र धातुः सकर्मकधातुः अस्ति चेत् तत्र कर्मपदं सम्भवति. अत्र कन्दमूलफलानि इति पदं कर्मपदं. छात्राः अरण्यं गच्छन्ति, किमर्थं गच्छन्ति? अत्र उमाशङ्करमहोदय वदतु. महोदय अस्ति वा अत्र? वदतु.
कन्दमूलफलानि आनेतुं आनेतुं
गच्छति अत्र. अत्र अत्र कन्दमूलफलानि आनेतुं कुत्र गच्छन्ति?
वनं गच्छति, वनम्.
अत्र भिन्नं पदमस्ति, अरण्यं.
अरण्यं गच्छन्ति, अरण्यं गच्छन्ति स्म.
इत्युक्ते अत्र छात्राः अरण्यं गच्छन्ति, परन्तु किमर्थम्?
कन्दमूलफलानि आनेतुम्?
किम् आनेतुम्?
कन्दमूलफलानि.
कन्दमूलफलानि आनेतुम्, अपि च इतोपि अन्यत् कार्यमस्ति, समिधः सङ्ग्रहीतुम्. अत्र समिधः इति पदं नूतनं पदम् अस्माकं कृते. समिधः इत्युक्ते यत् यदा वयं
महोदय
वुड् फर् यज्ञ, तदेव समिधः. किन्तु अत्र समिधः इति पदं पश्यन्तु, अत्र कथमस्ति, समिधः यथा रामः इव दृश्यते, किन्तु तत्र पदं कर्मपदम् इत्युक्ते द्वितीयविभक्तिरूपं. समिधः इति पदस्य रूपं द्वितीयविभक्तिरूपं तत्र. इत्युक्ते इदानीं पर्यन्तं वयं न पठितवन्तः हलन्तपदानि, संस्कृतभाषायां सुबन्तपदानि इत्युक्ते नामपदानि, नामपदेषु अजन्तपदानि सन्ति, हलन्तपदानि सन्ति. अजन्त इत्युक्ते अच् अन्ते अस्ति, इत्युक्ते यथा रामः, रामः इति पदम् अजन्तपदम् इत्युक्ते राम, तत्र अकारः श्रूयते, अतः अजन्तपदम्. किन्तु हलन्तपदानि सन्ति इत्युक्ते हल् वर्णः, कान्सनेण्ट् अन्ते अस्ति. अत्र हलन्तपदं, समिधः इति पदं हलन्तपदम् अस्ति, किन्तु सेकेण्ड् केस् द्वितीयाविभक्तौ अस्ति. अत्र कोऽपि ऊहां कुर्वन्तु, सङ्ग्रहीतुम् इति तुमुन्नन्तं रूपम् अस्ति, लट्लकाररूपं किम्?
सङ्ग्रह
इतोपि किञ्चित् अत्र उमाशङ्कर् महोदय ऊहां करोतु. अत्र
सङ्ग्रहयति
सङ्ग्रही.
अत्र अहं वदामि, अत्र वयं जानीमः ग्रहधातुः अस्ति. धातुः इत्युक्ते मूलरूपं, क्रियापदस्य मूलरूपं धातुः इति वदामः, ग्रहधातुः. ग्रहधातोः रूपं किं? गृह्णाति. गृह्णाति, किन्तु अत्र सम् इति उपसर्गः अस्ति. सम् उपसर्गपूर्वकः प्रिफिक्स्, प्रिफिक्स् अस्ति अत्र. सम् उपसर्गपूर्वकः ग्रह् धातुः अस्ति, तस्य लट्लकाररूपं सङ्गृह्णाति.
सङ्गृह्णाति,
सङ्गृह्णाति इति
सङ्गृह्णाति.
सङ्गृह्णाति इत्युक्ते अत्र हकारे नकारः अस्ति, गृह्णाति इति अस्ति, किन्तु तत्र उच्चारणम्, उच्चारणं कथं भवेत्, प्रोनौन्सियेशन्, हौ शुड् बि प्रोनौन्स् दट् वर्ड्? वु शुड् नाट् से सङ्गृह्णाति, नो, नाट् अलौड्. कथं वक्तव्यं? सङ्गृह्णाति तथा वक्तव्यं. सङ्गृह्णाति इति लट्लकाररूपं, किन्तु अत्र तुमन्नन्तनरूपं दत्तमस्ति. अतः छात्राः समिधः सङ्गृह्णीतुम् अरण्यं गच्छन्ति स्म, अपि च तण्डुलादिकं प्राप्तुं ग्रामान् गच्छन्ति स्म. अत्र तण्डुलः इति दत्तमस्ति. तण्डुलः इत्युक्ते
रैस्.
रैस्, उत्तमम्, उत्तमं महोदय. अत्र पश्यन्तु, अहं त्रीणि पदानि वदामि. एकः अस्ति तण्डुलः. तण्डुलः इत्युक्ते रैस् वन्स् द हस्क् इस् रिमूव्ड्. तण्डुलः इत्युक्ते रैस् इति वदामः. किन्तु व्रीहिः इति वदामश्चेत् रैस् बिफोर् द हस्क् इस् रिमूव्ड्. व्रीहिः इत्युक्ते बहूनि पदानि सन्ति संस्कृतभाषायां. व्रीहिः इत्युक्ते रैस् ओन्लि, किन्तु बिफोर् द हस्क् इस् रिमूव्ड्. किन्तु तण्डुलः इत्युक्ते आफ्टर् द हस्क् इस् रिमूव्ड्. अपि च ओदनम् इति पदमस्ति. ओदनम् इत्युक्ते वन्स् दट् रैस् इस् कुक्ड्, द कुक्ड् रैस् इस् काल्ड् ओदनम्. ओदनं वयं साधारणतया वयं देवालयं गच्छामश्चेत् तत्र दध्योदनम् इति अस्ति. दध्योदनम् इत्युक्ते कर्ड् रैस्. किमर्थं तत्र दधि, दधि इत्युक्ते कर्ड्, दधि योगः ओदनं दध्योदनं. तत्र सन्धिः
कर्ड् रैस्
कुक्कुर् कर्ड् रैस् उत्तमं कुक्कुर् कर्ड् रैस्. तत्र सन्धिः भवति दधि प्लस् ओदनं दध्योदनं दध्योदनम् इति भवति अत्र. किन्तु अत्र अस्माकं अत्र अस्मिन् वाक्ये पदमस्ति तण्डुलः. तण्डुलः इत्युक्ते रैस्. तण्डुलादिकं प्राप्तुं वयं जानीमः प्राप्नोति इति क्रियापदम्. प्राप्नोति इति क्रियापदस्य तुमुन्नन्तनरूपं प्राप्तुं. प्राप्तुं कुत्र गच्छन्ति स्म?
गृहं. They went home. Graham is plural of
Grama.
Grama.
Village.
I'm sorry. Village. They went to the village.
Kimardham gachanti Graman?
Tandula adikam praptam.
Uttama. Tandula adikam praptam. Atra pashyantu. तत्र गच्छन्ति इति पदमस्ति इति कृत्वा कुत्र गच्छन्ति? ग्रामान् गच्छन्ति. के गच्छन्ति? के गच्छन्ति? छात्राः गच्छन्ति. किमर्थं गच्छन्ति? किमर्थं गच्छन्ति?
तण्डुलं टुगेदर् रैस् टु ओब्टेन्
तण्डुल to obtain rice. Atra pashyantu adikam ichukte etc. Iti vadamaha tandula adikam ichukte tandulam adihi sa apicha praptum vayam janimaha praptum ichukte to obtain atra prapnoti iti vayam janimaha atra te graman gacchanti sma kintu asmakam vishayah asti sma apicha अग्रे गत्वा गुरुकुलं चालयितुं नृपाः साहाय्यं कुर्वन्ति स्म. अत्र गुरुकुलं चालयितुम् इति अस्ति. वयं जानीमः चलति कुत्र चलति? अत्र शुनकः अस्ति. शुनकः चलति इति वयं जानीमः. परन्तु अत्र लट्लकाररूपमस्ति चालयति. यथा पठति पाठयति. तेषु दिनेषु गुरुकुलम् इत्युक्ते तत्र गुरुकुलं चालयितुं धनस्य आवश्यकता अस्ति. दे नीड् मनी तुरन्द गुरुकुलं. गुरुकुलं चालयितुं साहाय्यं कुर्वन्ति स्म. के साहाय्यं कुर्वन्ति स्म? नृपाः साहाय्यं कुर्वन्ति. नृपाः अत्र कोऽपि जानाति वा नृपाः इत्युक्ते अर्थः कः?
बहुवचन फर् पीपल् नृप.
अत्र नृपाः इत्युक्ते राजानः. अत्र पश्यन्तु संस्कृतभाषायां बहूनि पदानि सन्ति अस्माकं कृते. राजा इति पदं वयं जानीमः. राजा इत्युक्ते किङ्ग्.
नृपः. सो दिस् विल् बि प्लूरल् किङ्ग्स्.
किङ्ग्स् इत्युक्ते अत्र पश्यन्तु राजा इति पदं नकारान्तपदं. किमर्थं चेत् तस्य मूलरूपं प्रातिपदिकमस्ति राजन्. प्रथमाविभक्तिरूपाणि कथं भवन्ति? राजा, राजानौ, राजानः तादृशरीत्या भवन्ति. किन्तु संस्कृतभाषायां पर्यायवाचकपदानि सन्ति इत्युक्ते सिनोनिम्स् सन्ति. अत्र नृपाः इति पदं राजाशब्दस्य पर्यायवाचकपदम् इत्युक्ते इट्स् अ सिनोनिम् फर् किङ्ग् राजा. किन्तु नृपशब्दः अकारान्तशब्दः. नृपः नृपाः बहुवचनरूपम्. नृपाः साहाय्यं कुर्वन्ति स्म. किमर्थं साहाय्यं कुर्वन्ति नृपाः?
किमर्थं?
गुरुकुलं चालयन्तम्.
गुरुकुलं चालयितुं, तुरन्दगुरुकुलम्. उत्तमं, तुरन्दगुरुकुलम्. अत्र किमर्थम् इति प्रश्नं पृच्छामश्चेत् तत्र तुमन्नन्तं रूपं. भवान् किमर्थं संस्कृतकक्षाम् आगच्छति?
संस्कृतं पठितुम् आगच्छन्ति.
आगच्छामि.
आगच्छामि, I'm sorry, आगच्छामि.
उत्तमम्. अहं संस्कृतं पठितुम् आगच्छामि. तथा एव अत्रापि तुमन्नन्तं रूपं. गुरुकुलं चालयितुं नृपाः साहाय्यं कुर्वन्ति स्म. दे यूस् टु हेल्प् द किङ्ग्स् यूस् टु हेल्प् तुरन्द गुरुकुलम्. अपि च धनिकाः अपि, धनिकाः इत्युक्ते यस्य पार्श्वे धनमस्ति सः धनी. धनिकाः इत्युक्ते तस्य पार्श्वे धनमस्ति इति कृत्वा धनिकाः अपि साहाय्यं कर्तुम् उत्साहं दर्शयन्ति स्म. इत्युक्ते किम्?
The rich people showed interest in helping.
के जनाः? धनिकाः.
धनिकाः.
धनिकाः. धनिकाः अपि इत्युक्ते वयं पूर्वं पठितवन्तः अपि. अपि इत्युक्ते अत्र नृपाः साहाय्यं कुर्वन्ति, राजानः साहाय्यं कुर्वन्ति. अपि च नाट् ओन्लि द किङ्ग्स्, ईवन् द रिच् पीपल्. नाट् ओन्लि बट् आल्सो, अत्र आङ्ग्लभाषायां वदामः तथा एव अत्र अपि इति पदमस्ति. संस्कृतभाषायाम् अपि इत्युक्ते आल्सो. धनिकाः अपि साहाय्यं कर्तुम्, अत्र पश्यन्तु कर्तुं, क्रूधातोः तुमन्नन्तं रूपं कर्तुम्. अत्र साहाय्यम् इति पदं नपुंसकलिङ्गपदं, न्यूट्रल् जेण्डर्. अपि च यदा कदापि नपुंसकलिङ्गपदमस्ति चेत् तस्य द्वितीयाविभक्तिरूपं यथावत् प्रथमाविभक्तिरूपम्. इत्युक्ते तत्र कोऽपि भेदः नास्ति. प्रथमाविभक्तिरूपं द्वितीयाविभक्तिरूपं तयोर्मध्ये नपुंसकलिङ्गपदेषु भेदः नास्ति. अत्र पश्यन्तु उत्साहं दर्शयन्ति, धनिकाः उत्साहं दर्शयन्ति. अत्र पश्यन्तु दर्शयन्ति इति पदमपि निजन्तरूपम् इति वदामः. सः चित्रं पश्यति. अत्र अधुना राजीवसिंह महोदयः पुस्तकं पश्यति इत्युक्ते अत्र सः पश्यति, किन्तु अत्र महोदयः अन्यं अथवा पुत्रीं, तस्य पुत्री अस्ति अथवा पुत्रः अस्ति, पुत्रं पुस्तकं दर्शयति इत्युक्ते किम्? अत्र
पश्यति मीन्स् समवन् सीस् इट्, दर्शयति मीन्स् समवन् शो इट्.
उत्तमं, तावदेव तावदेव उत्तमम्. इत्युक्ते अत्र अहं पुस्तकं पश्यामि, अहं पुस्तकं दर्शयामि, तथा एव अत्र दर्शयति इति पदमस्ति. अत्र कर्तृपदं बहुवचने अस्ति इति कृत्वा धनिकाः दर्शयन्ति. किं दर्शयन्ति? उत्साहं दर्शयन्ति. किमर्थम् उत्साहं दर्शयन्ति? साहाय्यं कर्तुं दर्शयन्ति उत्साहम्. किन्तु अत्र एतत् सर्वं तत्र पुरातनकाले अभवत् इति कारणतः अत्र सर्वाणि वाक्यानि केवलं भूतकालार्थे एव अत्र सन्ति. दर्शयन्ति स्म. अपि च किन्तु गुरुः स्वावलम्बिजीवनं यापयितुम् इच्छति स्म. यद्यपि अत्र राजानः साहाय्यं कुर्वन्ति कर्तुमिच्छन्ति, धनिकाः अपि साहाय्यं कर्तुमिच्छन्ति स्म, किन्तु गुरुः स्वावलम्बिजीवनं यापयितुम् इच्छति. अत्र स्वावलम्बिजीवन जीवनम् इति नूतनं पदमस्ति, समस्तपदम्. कोऽपि जानाति वा अत्र स्वावलम्बिजीवि जीवनम् इत्युक्ते?
इण्डिपेण्डेण्ट् लैफ् स्टैल्. इण्डिपेण्डेण्ट् लैफ्
उत्तमम्. इण्डिपेण्डेण्ट् लैफ्, अटानमस् लैफ्. किन्तु गुरुः स्वावलम्बिजीवनं यापयितुम् इच्छति. गुरुः इच्छति, वयं जानीमः इच्छति. इच्छति इत्युक्ते हि विशस् इच्छति स्म, गुरुः इच्छति स्म. अत्र पश्यन्तु, गुरुः इति पदम् एकवचने अस्ति इति कृत्वा अत्र गुरुः इच्छति. किमिच्छति? स्वावलम्बिजीवनं यापयितुम् इच्छति. अत्र तत्र बहूनि पदानि सन्ति, एकमेव पदं कृत्वा तत्र समस्तपदं लिखितमस्ति. अत्र
कः
अर्थः चिन्तयामः अधुना. यापयितुम् इति पदं तुमनन्तं रूपम्. अत्र संस्कृतभाषायां या इति दीर्घ आकारान्त धातुः अस्ति. धातुः इत्युक्ते यापदस्य मूलरूपं. या इति धातोः लट्लकाररूपं याति.
याति
किन्तु याति इति क्रियापदमस्ति. याति इत्युक्ते किं? गच्छति. गच्छति इति पदं वयं जानीमः. याति इत्यपि तस्मिन् एव अर्थे, इत्युक्ते पर्यायवाचकपदं. याति, गच्छति, अटति, एतानि पदानि सिनोनिम्स्. किन्तु अत्र किं दत्तमस्ति? यापयति, यथा दर्शयति, चालयति, यापयति. इत्युक्ते अत्र निजन्तरूपं दत्तमस्ति. निजन्तम् इत्युक्ते निच्प्रत्ययान्तरूपम्. इत्युक्ते गुरुः अत्र या धातोः निजन्तरूपं. निजन्तरूपम् इत्युक्ते याति इति सामान्यलट्लकाररूपम्. किन्तु अत्र दत्तमस्ति यापयति. स्पेण्डिङ्ग् स्वावलम्बिजीवनं यापयितुं. दे वाण्टेड् टु लीड् लीड् ए लैफ् आफ् दे वाण्ट् टु लीड् इण्डिपेण्डेण्ट् लैफ्. यापयति, यापयति इति क्रियापदस्य तुमन्नन्तं रूपं यापयितुम्. अत्र पकारः किमर्थम् आगच्छति? तत्र बहूनि सूत्राणि सन्ति. यदि भवन्तः अग्रे पठन्ति चेत् सूत्राणि सन्ति. अत्र अहं पठितवती, तदर्थं वदामि. अत्र सूत्रमस्ति अर्ति ह्रीव्लि. एकवारं शृण्वन्तु. अर्ति ह्रीव्लि क्नुयीक्ष्मायातां पुङ्णौ इति एकं सूत्रमस्ति. अष्टाध्यायी. अष्टाध्यायी कः रचितवान्? पाणिनिमहर्षिः रचितवान्. किमर्थं रचितवान्? किमर्थं रचितवान् इत्युक्ते, अत्र संस्कृतभाषायाः भाषायां पदानि कथं निष्पन्नानि, तेषां निष्पादनार्थं कानिचन सूत्राणि सन्ति. हौ दीस् वर्ड्स् आर् क्रियेटेड् फर् ईच् वर्ड् देर् आर् सो मेनि सूत्रास् रिलेटेड् टु ईच् इण्डिविजुवल् वर्ड्. अत्र याति इति पदं साधारणलट्रूपं, किन्तु यापयति, याति कथं यापयति इति भवति? इत्यस्मिन् विषये अत्र बहूनि सूत्राणि सन्ति. अत्र याति इति पदं साधारणरूपं, यापयति निजन्तरूपम्. इत्युक्ते स्वावलम्बिजीवनं यापयितुम् इच्छति सः, गुरुः. इत्युक्ते हि वाण्टेड् टु लीड् इण्डिपेण्डेण्ट् लैफ्. अतः तादृशं साहाय्यं प्राप्तुं न इच्छति स्म. अत्र राजीव् सिङ्ग् महोदय वदतु, अस्य अर्थः कः?
गुरु किन्तु गुरुः स्वावलम्बजीवनं यापयितुम् इच्छति स्म. परन्तु गुरु wanted to live a independent life.
किन्तु अत्र वाक्यं किं दत्तमस्ति, तादृशं साहाय्यं प्राप्तुं न इच्छति.
तादृशं अतः तादृशं तादृशं
इत्युक्ते अत्र संस्कृत लैक् देट् हेल्प् लैक् देट्
फोर् देट् रीसन् तादृशं
अतः अतः इत्युक्ते अग्रे गत्वा वयं पठिष्यामः. अतः फर् दट् रीसन् इत्युक्ते अतः इत्युक्ते किं पूर्वं किं दत्तमस्ति, गुरुः साधारणतया स्वावलम्बजीवनं यापयितुम् इच्छति स्म. तत् कारणेन तेन कारणेन अथवा तस्मात् कारणात् फर् दट् रीसन् अतः इत्युक्ते तस्मात् कारणात् फर् दट् रीसन् तादृशं साहाय्यं तादृशं साहाय्यं सच् हेल्प् इत्युक्ते संस्कृतभाषायां पदानि तादृश अग्रे गत्वा अभ्यासभक्तिका वयं पठिष्यामः. तादृशं नपुंसकलिङ्गं, तादृशी स्त्रीलिङ्गं, तादृशः पुंलिङ्गम् इत्युक्ते एतत् पदं विशेषणं. यदि पदं विशेषणमस्ति चेत् इत्युक्ते एड्जेक्टिव् इति वदामः आङ्ग्लभाषायां. पदं विशेषणमस्ति चेत् त्रिषु लिङ्गेषु भवति.
So when you join the adjective with the so you have to use the same pulling or strilling, right?
इत्युक्ते अत्र पश्यन्तु साहाय्यम् इति पदमस्ति नपुंसकलिङ्गपदम्. साहाय्यम् इति पदस्य विशेषणं तादृशम् इत्युक्ते अत्र विशेषणमस्ति इति कृत्वा अत्र साहाय्यम् इति पदं नपुंसकलिङ्गे अस्ति अतः तादृशं. यदि तत्र ग्रन्थः इति पदमस्ति चेत् तादृशः ग्रन्थः फलमस्ति चेत् तादृशं फलं अपि च पाठशाला अथवा नदी अस्ति चेत्
तादृशी
नदी तथा भवति. इत्युक्ते अत्र पदं विशेषणमस्ति चेत् तत्र विशेष्यस्य रूपं लिङ्गं वचनं विभक्तिं स्वीकरोति. इत्युक्ते तत्र एकः श्लोकः अस्ति, यल्लिङ्गं यद्वचनं या च विभक्तिः विशेष्यस्य, तल्लिङ्गं तद्वचनं सा च विभक्तिः विशेषणस्य अपि इति एकः श्लोकः अस्ति. इत्युक्ते अत्र विशेषणम् इति अस्ति, साहाय्यम् इति नपुंसकलिङ्गपदस्य विशेषणमस्ति इति कृत्वा अत्र तादृशं साहाय्यं, गुरुः तादृशं साहाय्यं प्राप्तुं न इच्छति. इत्युक्ते
he didn't want such help.
He don't want such help. अतः अतः तादृशं साहाय्यं प्राप्तुं न इच्छति स्म. उत्तमम्. इत्युक्ते अत्र अस्मिन् लेख्यबन्धे बहूनि वाक्यानि सन्ति, किन्तु प्रत्येकस्मिन् वाक्यस्य अन्ते मा इति पदं योजितमस्ति, तेन भूतकालार्थं सिध्यति इति वयं जानीमः. अधुना वयं किं कुर्मः इत्युक्ते अत्र उमाशङ्करमहोदय भवान् पठति वा, अत्र रामशब्दः वनशब्दः लताशब्दः एकवारं पठतु महोदय. नो चेत् अत्र किं कुर्मः, अधुना अत्र क्रियापदानि सन्ति, पठति इति क्रियापदं दत्तमस्ति. भवान् पठति वा, अत्र पठति इति शब्दस्य नवरूपाणि.
पठति, पठत, पठन्ति, पठसि, पठत, पठत्, पठामि पठाव पठाम भगिनि हलो
भू अत्र भवन्ति इति पदमस्ति करपत्रं दृष्ट्वा भू धातोः नवरूपाणि वदतु
भवति
भवति
भवति भवति भवतः भवन्ति भवसि भवतः भवत् भवामि भवाव भवाम
सुन्दरं भवामः उत्तमं तादृशरीत्या एव वक्तव्यम् अत्र उमाशङ्करमहोदय भवान् वदतु अग्रिमम् एकं पदं ददामि अत्र गच्छति गच्छति वदतु महोदय करपत्रं दृष्ट्वा नवरूपाणि वदतु
गच्छति गच्छतः गच्छन्ति गच्छसि गच्छतः गच्छतः गच्छामि गच्छावग गच्छामग
अत्र अत्र किमर्थं नवरूपाणि सन्ति कोऽपि जानाति वा अत्र किमर्थं नवरूपाणि जान् महोदय वदति वा भवान् वदतु
किमर्थं फार् आल् द डिफ्रेण्ट् पुरुष
क्रियापदानि
किमर्थं
किमर्थं
वदतु एकवारं महोदय उमाशङ्कर महोदय शृणोतु वदतु महोदय
for the three purushas each one will have three vachanas so
three vachanas
so totally nine
इत्युक्ते कथं वक्तव्यम् अधुना उमाशङ्कर महोदय भवान् वदतु किमर्थं अत्र नवरूपाणि
प्रथम मध्य and उत्तम purushas each require three of them so totally nine
uttama tavadeva itukte atra prathama purusha idi kartrupadam prathama purushe asti chet ekavachane prathama purusha kartrupadam ekavachane dvivachane bahuvachane apicha madhyama purusha kriya padam asti chet kshamitam madhyama purusha kartrupadam asti chet itukte object is in the madhyama purusha second person तथा अस्ति चेत् एकवचने द्विवचने बहुवचने अपि च उत्तमपुरुष कर्तृपदमस्ति चेत् अहम् इति उत्तमपुरुषकर्तृपदम् अहम् आवां वयम् इति रूपाणि सन्ति चेत् तत्र त्रीणि पदानि सन्ति अत्र महोदय एकवारं वदतु ताडयति रूपाणि वदतु
ताडयति ताडयत् ताडयन्ति ताडयसि ताडयत् ताडयत् ताडयामि ताडयावः ताडयामः
ताडयामः उत्तमम् उत्तमम् अपि च अत्र इतोपि नूतनानि पदानि सन्ति अन्यानि पदानि कानि इत्युक्ते अत्र गच्छन्ति राजीवसिंह महोदय वदतु गच्छन्ति गच्छति रूपाणि
गच्छति गच्छत गच्छन्ति गच्छसि गच्छथ गच्छत् गच्छामि गच्छाव गच्छामः
उत्तमम् अत्र किन्तु तत्र मध्यमपुरुष बहुवचनरूपं गच्छथ कथं वक्तव्यं गच्छसि गच्छथः गच्छथ अत्र गच्छत् इति वदामश्चेत् तत्र पश्यतु गच्छत् इति वदामश्चेत् तत्र दण्डः दृश्यते इत्युक्ते अण्डर् द तकारः यु केन् फैण्ड् ए स्ट्रोक् अत्र पश्यन्तु एकवारं तत्र ग्रन्थान् इति वदामश्चेत् तत्र अधोभागे दण्डः दृश्यते इत्युक्ते देर् इस् ए स्ट्रोक् बिलो द लेटर् तथा अस्ति चेदेव ग्रन्थान् पठत् इति वदामः. किन्तु तथा स्ट्रोक् नास्ति चेत्, दण्डः नास्ति चेत् किं वक्तव्यं? पठत, पूर्णतया वक्तव्यं, पूर्णतया वक्तव्यं. तत्र भेदः अस्ति, पठत् इति पदमस्ति, पठत अस्ति, पठथ अस्ति, पठथः अस्ति. तादृशरीत्या तत्र देर् इस् अ डिफ्रेन्स् बिट्वीन् दोस् वर्ड्स्, पठत् पठत. पठत् इति वदामश्चेत् तत्र अधोभागे दण्डः दृश्यते. यदि दण्डः नास्ति चेत्, स्ट्रोक् नास्ति चेत् तत्र पठत
पठत
पठत पठत पठत तादृशरीत्या
अपि च Is halal the same as danda, you're saying? Or, you know,
bhavan, danda hi, padita mohade?
Danda ha and halal ta ha samana ha va?
Danda hai chukte, atra bhavan, bhavan, ita vadama sita tatra nakara se adho bhage, just below the nakara ha, you can see the stroke.
Right, okay.
तथा अस्ति चेत् भवान् गच्छन् इति वदामः. किन्तु तत्र स्ट्रोक् नास्ति चेत् भवा पूर्णतया तस्य उच्चारणं करणीयम्. इत्युक्ते कथं भवान् इति सम्यक् नास्ति, भवान इति भवति. तत्र स्ट्रोक् अस्ति वा, अधोभागे स्ट्रोक् अस्ति वा इति द्रष्टव्यम्. We need to see if there is a line under that letter. Small stroke. If it is there, then you are supposed to say it, Bhavan, Pathan, Gachan, Tadha Vaktavyam. Kintu stroke nasti chit, Sampoornataya, Pathata,
Bhavana,
Bhavana, Tadha Vaktavyam. Uttum. Apicha. Aduna. अत्र ददाति अस्मिन् अत्र एस्से अस्ति, एस्से तत्र ददाति इति क्रियापदमस्ति. कोऽपि जानाति वा ददाति इति क्रियापदस्य रूपाणि कानि? नवरूपाणि. ददाति किञ्चित् भिन्नानि सन्ति. इदानीं
third person singular.
Dadati iti kriya padam asti, kintu aham kim pruchami dadati iti shabdasya nava rupani kani. Idanin paryanta vayam pathati gacchati etadrushan rupani vayam jnatavantah. Dadati iti padasya rupani kinchit bhinnani bhavanti. Kupi chanati iti padanti. अत्र अत्र रूपाणि किञ्चित् भिन्नानि. एकवारम् अहं वदामि, यदि भवन्तः जानन्ति चेत् वदन्तु, नो चेत् अहं वदामि. अत्र अत्र रूपाणि कथं भवन्ति इत्युक्ते, ददाति, दत्तः, ददति प्रथमपुरुष, मध्यमपुरुष ददासि, दत्तः, दत्त, ददामि, दद्वः, दद्मः, दद्मः. तादृशरीत्या रूपाणि भवन्ति ददाति शब्दस्य. किन्तु अत्र क्रूधातोः रूपाणि प्रेषितवती. अन्यत् करपत्रं पश्यन्तु, अत्र क्रूधातोः रूपाणि सन्ति.
करोति, कुर्तः, कुर्वन्ति. Karoshi, Karosha, Karoshat, I forgot. And Karomi, Kurmaha, Kurvaha.
Kurvaha, Kurmaha, Utma. Rajiv Shimhodi, Bhavan Pathatu, Ekavaram. Krudhato Harupani.
Karoti, Kurtaha, Kurvanti. Karoshi. कुरतः कुर्थ करोमि कुर्वः कुर्मः
इत्युक्ते अत्र वयं पूर्वं पठति इति शब्दस्य रूपाणि पठितवन्तः किन्तु अत्र पश्यन्तु किञ्चित् भिन्नानि भवन्ति रूपाणि द फार्म्स् आर् लिटिल् डिफ़रेण्ट् अत्र करोति कुरुतः कुर्वन्ति करोषि कुरुतः कुरुथ करोमि कुर्वः कुर्मः किन्तु अत्र अस्मिन् करपत्रे अत्र नवरूपाणि दत्तानि परन्तु अग्रे पश्यन्तु दक्षिणभागे आन् द रैट् सैड् अन्यानि नवरूपाणि दत्तानि किमर्थम्
आत्मपदे आत्मेन
उत्तमम् इत्युक्ते अत्र संस्कृतभाषायां धातवः अत्र परस्मैपदी धातवः आत्मनेपदी धातवः उभयपदी धातवः इति त्रिविधाः सन्ति अत्र क्रु इति धातुः उभयपदी धातुः किन्तु पठ् धातुः केवलं परस्मैपदी अतः केवलं नवरूपाणि भवन्ति पठति पठतः पठन्ति पठसि पठतः पठत पठामि पठावः पठामः तथा नवरूपाणि सन्ति किन्तु क्रु धातुः उभयपदी धातुः इति कृत्वा इतोपि अन्यनवरूपाणि सन्ति इत्युक्ते नवरूपाणि परस्मैपदिरूपाणि नवरूपाणि आत्मनेपदिरूपाणि परन्तु वयम् अग्रे गत्वा परस्मैपदम् इत्युक्ते किम् आत्मनेपदम् इत्युक्ते किम् उभयपदी इत्युक्ते किम् एतेषां विषये अग्रे गत्वा वयं ज्ञास्यामः किन्तु अत्र क्रु धातुः उभयपदी धातुः अतः अत्र अष्टादशरूपाणि 9+9 18 रूपाणि सन्ति एकवारं भवान् पठतु महोदय आत्मनेपदीरूपाणि वदतु
कुरुते कुर्वाते कुर्वते कुरुसे कुर्वाथे कुरुध्वे कुर्वे कुर्वहे कुर्महे
तादृशरीत्या रूपाणि भवन्ति किन्तु अग्रे गत्वा वयं ज्ञास्यामः कुरुते कुर्वाते कुर्वते कुरुषे कुर्वाथे कुरुध्वे कुर्वे कुर्वहे कुर्महे इत्युक्ते अत्रापि यथा पूर्वं जान् महोदयः उक्तवान् प्रथमपुरुष कर्तृपदस्य कृते एकवचन द्विवचन बहुवचनं मध्यमपुरुष कर्तृपदमस्ति चेत् एकवचनं द्विवचनं बहुवचनं उत्तमपुरुष अस्ति चेत् तथा त्रिषु वचनेषु त्रिषु वचनेषु त्रिषु पुरुषेषु
नव
भगिनि can you give usage of of these two different ones and atmane padam
agre gatva vayam jnasyamah ichukte atra parasmepadi rupani ichukte dhatoh rupani sadharanate kim vadamah yadi karyam asmakam krute kurmah chet tada kevalam atmanepadi अन्येषां जनानां कृते कुर्मः चेत् परस्मैपदी इति उक्तमस्ति परन्तु आत्मनेपदिनः सन्ति भाषायां परस्मैपदिनः सन्ति उभयपदिनः सन्ति इति जस्ट् नो दट् मच् महोदय अदर्वैस् नो इट् विल् बि वेरि कन्फ्यूसिङ्ग् फर् यु इत्युक्ते केवलम् अत्र केचन धातवः परस्मैपदिनः सं धातुस् आर् परस्मैपदी धातुस् सं धातुस् आर् आत्मनेपदी धातुस् बट् सं धातुस् आर् उभयपदी इत्युक्ते दे हाव् एव्रि द लट्लकाररूपं दे हाव् 18 फार्म्स् उभयपदी अस्ति चेत् तथा तावत् पर्याप्तम् अधुना दट् इस् सफिशियण्ट् महोदय अदर्वैस् इट् विल् बि वेरि कन्फ्यूसिङ्ग् बट् प्रथमतया वयं सर्वे परस्मैपदिरूपाणि पठामः अधुना अत्र देवशब्दः अस्ति. एकवारं देवशब्दं पठतु महोदय. उमाशङ्करमहोदय पठति वा? करपत्रं प्रेषितवती सुबन्तपदानि प्रारम्भिकस्तरीय. नो चेत् भवान् जानाति चेत् केवलं वदतु. अत्र देवशब्दः अथवा रामशब्दः किमपि अकारान्तपदं कोऽपि जानाति चेत् पूर्णतया अत्र एकविंशतिरूपाणि अथवा चतुर्विंशतिरूपाणि 24 फार्म्स् एकवारं पठामः. कः वदति अधुना अत्र 480 नम्बर् अस्ति. 480334 कस्याः दूरवाणीसङ्ख्या? न वदति. अस्तु, अत्र कः वदति? जान् महोदय, भवान् जानाति चेत् वदतु. अत्र रूपाणि 21 फार्म्स् फर्
देवः, देवौ, देवः, देवं, देवौ, देवान्, देवेन, देवेभ्यां, देवहे, देवाय, देवभ्यां, देवेभ्य, देवात्, देवभ्यां, देवेभ्य, देवश, देवयोः, देवानां, देवे, देवयोः, देवेषु, हे देव, हे देवो, हे देवः.
उत्तमम्. इत्युक्ते इदानीं पर्यन्तं चतुर्विंशतिरूपाणि वयं पठितवन्तः. इत्युक्ते अत्र देवशब्दः अकारान्त पुंलिङ्ग अजन्तपदम् अच्छन्ति अस्ति इति कारणतः, अकारः अन्ते अस्ति इति कारणतः अजन्तपदम् इति वदामः. देवशब्दस्य रूपाणि एकविंशतिरूपाणि भवन्ति, अपि च त्रीणि रूपाणि सम्बोधनारूपाणि सन्ति. अपि च अधुना तस्मिन् एव करपत्रे अत्र अकारान्तनपुंसकलिङ्गपदं वनशब्दः. जान् महोदय, भवान् पठति वा? वक्तुं वदतु महोदय. जानाति चेत् वदतु, नो चेत् पठतु.
वनानि वनं वने वनानि वनं वने वनानि वनानि वनाभ्यां सेम् एस् मास्कुलैन्
यदि भवान् श्रोतुमिच्छति चेत् भवान् शृणोतु महोदय. भवान् पूर्वमेव उक्तवान् अत्र दृष्टिः सम्यक् नास्ति इति उक्तवान्, अतः शृणोतु. राजसिंह महोदय, भवान् एव पठतु.
वनं वने वनानि, वनं वने वनानि, वनेन वनाभ्यां वनैः, वनाय वनाभ्यां वनेभ्य, वनात् वनाभ्यां वनेभ्य, वनस्य वनयोः वनानां, वने वनयोः वनेषु, वन वने वनानि.
उत्तमम्. अपि च लताशब्दमपि पठतु, नदीशब्दमपि पठतु, तेन वयं समापयामः. एकवारं लताशब्दमपि पठतु.
लता, लते, लताः, लतां, लते, लताः, लतया, लताभ्यां, लताभिः, लताये, लताभ्यां, लताभ्यः, लतायाः, लताभ्यां, लताभ्यः, लतायाः, लतयोः, लतानां, लतायां, लतयोः, लतासु, लते, लते, लताः.
उत्तमम्. उत्तमम्. अपि च अन्तिमं पदमस्ति ईकारान्तस्त्रीलिङ्गपदं नदीशब्दः. नदीशब्दं पठतु एकवारं.
नदी, नद्यौ, नद्यः, नदीं, नदीं, नद्यौ, नदीः, नद्या, नदीभ्यां, नदीभिः, नद्ये नदीभ्यां नदीभ्यः नद्या नदीभ्यां नदीभ्यः नद्यः नद्योः नदीनां नद्यां नद्योः नदीषु नदी नद्यो
तत्र तत्र नदीषु
नदीषु
सप्तमी सप्तमी बहुवचनं नदीषु उत्तमम् उत्तमरीत्या उक्तवान् भवान्. अत्र गृहं गत्वा एकवारं प्रतिदिनं नित्यं किञ्चित् किञ्चित् पञ्चनिमेषपर्यन्तं रटनं कुर्मः चेत् इफ् वि रीड् दम् 5 minutes डैलि वितिन् ए मन्त् वि केन् बै हार्ट् दीस् वर्ड्स्. अधुना 10 अभवत् किन्तु क्त्वा इत्यस्मिन् विषये वयं आगामिसप्ताहे पुनः एकवारं मिलित्वा क्त्वा इत्यस्मिन् विषये ज्ञास्यामः. अधुना अत्र स्थगयाम, अग्रिमे सप्ताहे पुनर्मिलामः. धन्यवादः.
धन्यवादः
भगिनी. शुभरात्रि.
धन्यवादः. शुभरात्रि. शुभं भूयात्.
धन्यवादः महोदय.